ஓம் சிவாய நம. டியர் லிசனர்ஸ் ஆஃப் சைவம் .org, தி நெக்ஸ்ட் ப்ரோக்ராம் இஸ் புராண பாராயணம். இன் திஸ் யூர் அபவுட் டு லிசன் ஸ்கந்த மகாபுராணம். த டைட்டில் இஸ் மாகேஸ்வர காண்டம் பார்ட் 3 பூர்வார்த்தம். தேங்க்யூ. ஓம் சிவாய நம.
தசமோத்யாய தேவ்யாஸ்ச பச்சரியாயாம் மைஷாசுரேண சஹ யுத்த வர்ணனம். ब्रह्मोवाच अथ देवा महीं हित्वा महिषासुरपीडिताः नत्वा गौरीं तपस्यन्तीं जग्मुशरणमाकुलाः अथ तानभयं देहि देवीति भयविह्वलान् अमरान्वीक्ष सा देवी किङ्कायमिति चाभ्यधात् ततो विज्ञापयामासुर्दैत्येन्द्राद्भयमात्मनाम् देव्यै बद्धाञ्जलिपुटा देवा इन्द्रपुरोगमाः देवा ऊचुः अप्सरोभिः परिवृतः सुखम् क्रीडति नन्दने ऐरावतमुखान् सर्वान् दिग्नागानिजमन्दिरे आवासयन् विनोदार्थम् अङ्गनाभिः स्वहागतान् उच्चैः श्रवः पुरोगानाम् उपभोगम् करोत्यसौ मन्दुरास्वस्य रम्यासु दृश्यन्ते लक्षकोटयः हुताशवाहनम् मेषम् पुत्रारोहार्थमीप्सति याम्यम् महिषमानीय शकटेशोऽभ्यवाहयत् सिद्धिराकृष्य सकला गृहकर्मणि चादिशत् अप्सरः सङ्घमखिलम् आत्मसेवार्थमानयत् अन्यत् किमपि यद्वस्तु रत्नभूतम् जगत्त्रये अनाहृतम् पुनर्हर्तुम् न विश्राम्यति कोपवान् वयम् च सेवका भूत्वा नित्यभीतिसमन्विताः पूजयन्तश्च सस्याज्ञा नान्याम् वीक्षामहे गतिम् शरणागतसन्त्राणम् तपः फलमुदाहृतम् दुर्जयोऽयम् वरो दैत्यः सर्वेषाम् बलिनामपि सुराणामपि दैत्यानाम् शिवाल्लब्धवरोदयः अस्य शृङ्गाहतः सिन्धुर्व्यावर्जितमिति ब्रुवन् रत्नोपहारदानेन नित्यम् तत्प्रीतिमिच्छति पर्वतांश्च समुत्क्षिप्य शृङ्गाग्रेण महोद्धतः क्रीडति क्षोदिताशेषधातुधूलि विलेपनैः न शक्यमतुलम् तस्य बलमन्यदुरासदम् स्वयमेव विजानीहि हत्वा ते निजतेजसा शम्भुशक्तिः पराशेयम् स्त्रीरूपेणात्र दृश्यते त्वयैवायम् निहन्तव्यः शिवाल्लब्ध वरोह्ययम् न जानीमो वयम् देवि किञ्चिच्छम्भु विचेष्टितम् केवलम् पालनीयास्म जगन्मात्रा सदा त्वया इति तेषाम् भयार्तानाम् आकर्ण्य वचनम् शुभम् व्याजहार प्रसन्नात्मा देवी दत्त्वा भयम् तदा शरणागतसन्त्राणम् तपसि स्थितया मया कर्तव्यममराः कालात् क्षीणः शत्रुर्भविष्यति उपायेन समाकृष्य हनिष्यामि महासुरम् निरागसस्तु हननम् अद्य मे न युज्यते धर्मगे धर्मभेत्तारः शलभत्वम् व्रजन्ति हि देवास्तद्वचनम् श्रुत्वा प्रणम्यगिरिकन्यकाम् जग्मुर्यथा गतम् सर्वे निर्भया हृष्टचेतसः गतेषु तेषु देवेषु गौरीकमललोचना बभूव मोहिनी शक्तिः कान्तियुक्ता तलोदरी सा देवी दिक्षु शैलेषु चतुर्ष्वरुणभूभृतः रक्षार्थम् स्थापितवती चतुरु बटुकान्वरान् यदा कैलासशिखरादागता शैलकन्यका अन्वगच्छन् सेवमानाश्चतस्रो मातरस्तदा दुन्दुभिः सत्यवत्याख्या तथा चानवमी परा सुन्दरीति चतस्रस्तामन्वयुः परिचारिकाः विमुञ्चतातिथिम् श्रान्तम् क्षुत्पिपासा समन्वितम् अरुणाद्रिम् इमम् द्रष्टुम् नान्यमित्यब्रवीच्यतान् सीमाशैले स्थितान् वीरास्तानादिश्य बलाधिकान् तपश्चचाराद्रिकन्या गौतमाश्रमसन्निधौ तस्याम् तपन्त्याम् तन्मङ्ग्याम् नतापः कश्चिदप्यभूत् ववर्षकाले जलदः सफलाश्चाभवन्द्रुमाः विरोधीनि च सत्त्वानि मूचुः पूर्वमत्सरम् आश्रमः सर्वजन्तूनाम् शरण्योऽभूद्भयापहः योजनद्वयपर्यन्तम् सीमाशैलेषु संस्थितैः चतुर्भिर्बटुकैः शूरैः रक्षितश्चारुणाचलः नोदभूत् कश्चन त्रासो न च दृष्टो भयोदयः न व्याधिपीडनम् चासीत् तत्र नारिविजृम्भणम् कृतार्था मुनयः सर्वे प्रशंसन्तो नगात्मजाम् शिवलोकपदम् केचित् प्रत्यशंसंस्तथाश्रमम् सा च गौरी तपो घोरम् कुर्वती च दिवानिशम् न तृप्तिमायौ बाधा शिवसन्तोषकारकम् महिषश्च महावीर्यो मृगयाम् कर्तुमुद्यतः चचार काननम् सर्वम् विदूरे शोणभूभृतः दैत्यसैन्यसमायुक्तो मृगयूथान्यनेकशः वनेषु निघ्नम् स्तरसा विचचाराशु भक्षयन् धन्विभिर्बलिभिर्वीरैर्मृगाः केचित् अनुद्रुताः भयार्ताः परिधावन्तः प्राविशंस्तथाश्रमम् अनुव्रजन्तो नितिजा मृगास्तान् हन्तुमुद्यताः वारिता बटुकैर्वीरैर्मायातात्रेति तत्वरैः किमत्रेति तदा पृष्टा बटुका दुष्टदानवैः तपस्यति वरारोहा कन्यात्रेत्याहुरञ्जसा न केनचित् प्रवेष्टव्यम् बलिना मुनिजीवितम् तपस्थानमिदम् देव्याः शरणगतरक्षकम् इति तेषामुत श्रुत्वा बलिनो दुष्टदानवाः तथेति विनिवृत्त्याशु कर्तव्यम् समचिन्तयन् मायया पक्षिरूपास्ते प्रविश्याश्रममादरात् आरामवृक्षशाखासु निषेदुःखादिहेक्षितुम् सा पुनर्लसितारण्ये सर्वर्तकुसुमान्विते तपस्यन्ती तदा दृष्टा माया दैत्यस्य सैनिकैः रूपलावण्यते तस्या निश्चयम् तपसि स्थितम् वीक्ष्यते विस्मयोपेता गत्वा तस्मै न्यवेदयन् तस्मरार्थो वृद्धरूपः प्रविवेशाश्रमम् तदा पूजितोऽस्याः सखीभिश्च गतश्रान्तिरिव स्थितः वृद्धो पृच्छत् किमर्थम् तु तपोऽस्या इति तास्तथा बालाकान्तप्रसादार्थम् चिरमत्र तपस्यति परम् स बलवान् कान्तो न कदापि प्रसीदति कायम् विवाहसमये मनोरथम् यथोचितम् अपूर्वप्रभुणा तेन नमोपकरणम् महत् सद्यो जातकुलालेन सद्यः सृष्टैर्विपाचितैः भाजनैरपि साध्यस्तैर्न्यस्तैः पक्वैश्च शालिभिः तादृशैः साधनैः सर्वैस्तादृशैर्द्रव्यसञ्चयैः अपूर्वदृष्टविभवैः कार्यम् स्यादुपकारणम् सिद्धे तथोपकरणे स्याः सद्योऽस्तु स्वयंवरः इति तासाम् वचुः श्रुत्वा विहसन्महिषोऽभ्यधात् तपः फलमहम् प्राप्तः सत्यमस्या इति स्थितम् मदीयाम् सकलाम् भूतिम् शृणु बाले तपस्विनी महिषोऽहम् महावीरो दैत्येन्द्रः सुरवन्दितः जगत्त्रयमिदम् सर्वम् मयैम परिगृह्यते अनन्यवीरसद्भावो मय्येम मुजशुष्मणा कामरूपोऽस्म्यहम् बाले सर्वभोगप्रदायकः भज माम् तव भर्तारम् प्राणिनाम् तपसः फलम् सर्वम् सम्पादयिष्यामि कल्पवृक्षैः समाहृतैः सृजामि तपसा चाहम् विश्वकर्माणमादितः कामधेनुसहस्राणि सृजामि तपसाक्षणात् नमभिर्निधिभिः प्राप्तैः पार्श्वस्थैः नित्यदा मम अपेक्षितार्थसंसिद्धिः सहसैवोपपाद्यते इति तस्य वचः श्रुत्वा स्मृतदेवाभवत्क्रमात् विसृज्य मौनम् शनकैर्विहसन्तीतमब्रवीत् अहम् बलवतो भार्या भविष्यामि तपश्चिरम् करोमि यद्यसि बलि बलम् दर्शय मे निजम् विरचस्त्री स्वभावम् स्वम् श्रुत्वा तद्वाक्त्यमुत्थितम् हते कोऽयम् इति क्रोधान्ननद महिषासुरः ఘృక్షంతం సమాయాంతం వివక్షతం మహిషాసురం అభూద్ దురాసదా దుర్గా కన్యాసా జ్వలనాకృతి మహామాయాం సమాలోక్య జ్వలంతీం పురతస్థితా స్వయం స మహిషాకారో వవృధి మేరుసన్నిభః కులభూధరథ శృంగాణి శృంగాభ్యాం ముహురాక్షిపన్ ఆజుహావ నిజాం సేనాం ఆపూరిత దిగంతరాం అథ బ్రహ్మముఖా దేవాః ప్రణమ్య వివిధాయుధైః పూజయామాసురాత్మీయై దుర్గాం కాలాగ్నిరూపిణీం పంచహేతీర్హరిః ప్రాదాదశా చాపి సదాశివః బ్రహ్మా చతస్రశ్చ సదా తస్యై మాయా తిరోహితాః దిక్పాలాశ్చ సురాశ్చాన్యే పర్వతాశ్చ పయోధయః స్వీయైరాభరణైః శస్త్రైరథుష్యాస్తామపూజయన్ మాయాసా బహుభిర్హస్తైర్జ్వలదాయుధ సంచయైః ఆబద్ధకవచాత్తూర్ణం దుర్గాభూత్ సింహవాహన ఆపూరిత దిశాభోగా తేజస్తత్సోఢుమక్షమః దుర్గాయా ఘోరమాలోక్య మహిషస్తు పలాయితః అథ తేజో నిజం ఘోరం ప్రజ్వలత్ సోఢుమక్షమం పలాయమానమాలోక్య మహిషం సా వ్యచింతయత్ ఉపాయేన నిహంతవ్యో దుష్టోయం మహిషాసురః మదపూర్వం నివృత్యంతే మృగా మృగయుభిర్వనే దూతోక్తిభిః సమాకృష్య మృద్వీభిర్మర్మవృత్తిభిః కోపమస్య సముద్భావ్య కరిష్యేభిముఖం క్షణాత్ అధర్మవృత్తియుక్తానాం ధర్మవాక్య పరిశ్రవాత్ కోపః సముద్భవేత్ సద్యః స్వజీవక్షయకారణం అథవా ధర్మబుద్ధిః సన్ యది శాంతో భవిష్యతి తదాహితోపదేశేన ధర్మలోపో న సంభవేత్ తపస్యద్భిః సదా కార్యః కోపత్యాగః ఫలాన్వితః ధర్మః నిర్న సోఢవ్యా తత్కోపో హి తపః పరం ఇతి సంచింత్య సా గౌరీ నామ్నా సురగురుం మునిం సంకల్ప్య వానరముఖం ప్రాహిణోదసురం ప్రతి గచ్ఛత్వం మమయయా యుక్తో మహర్షే వానరానన మహిషం బోధయిత్వా చ వచనం శీఘ్రమావ్రజ మైవత్వమరుణాద్రేశం ఉపపీడయ దుర్మతే అత్ర దుర్మనసా వీర్యం అదృశ్యం భవతి క్షణాత్ నకలేరుపతాపోత్ర నాసురైరపి పీడనం నసాహసం చ సుభదం శివభక్తిమతామపి పూర్వజన్మకృతైః పుణ్యైః లబ్ధవీర్యమహోదయః మాత్వం శోణాచలేశాగ్నౌ శలభత్వం భజాసుర శివేన దత్తా విభవాస్తవ పూర్వతపోబలాత్ దహ్యేరన్యత్ర తరసా దావబంధౌ యథాద్రుమాః అత్ర ధర్మాత్మనాం వాసః శివభక్తిమతాం సదా పరపీడా ప్రసక్తానాం భవేద్ రోగశతావృతః ఐశ్వర్యమతులం ప్రాప్తో బలమన్యద్దురాసదం కిమర్థం స్వల్పబుద్ధిః సన్ స్వదోషైర్నాశమేష్యతి మయా కన్యా పునర్దృష్టా విశేషాదబలామత అంతర్గతోరుణాద్రేశ ఏతస్మాత్ సా విశిష్యతే అథవా యుక్తిభేదైస్త్వం శాస్త్రైర్వా శివసమ్మతైః అనిగ్రాహ్యమనోవృత్తిరాత్మసైన్యం సమానయ యేన లోకాన్ సమస్తాస్త్వం బాధసే బలగర్వితః తత్సైన్యం తవ వృద్ధం చ క్షణాధక్ష్యామి తేజసా ఆనీయ సకలం సైన్యమగ్రే స్థాపయ సాయుధం సద్యస్త్వాత్మబలైః సృష్టైః సంహరిష్యామి తత్క్షణాత్ మచ్చస్త్ర పరికృత్తస్య ససైన్యస్య తవాయుషః ముక్తిరత్రైవ భవిత కో జానాతి శివేహితం వార్యమాణోపి పూర్వేణ కర్మణా ప్రేరితో జనః అవశః కర్మ కురుతే భుంక్తే చ సదృశం ఫలం త్వయాపి కరుణావాక్యం వక్తవ్యం కిల భూరిభిః అకార్యవినివృత్త్యర్థం నిత్యధర్మానుపాలనే ఇతి గౌర్యా సమాదిష్టా వాచం కపిముఖో మునిః దూతః సన్ సర్వమాచష్ట మహిషస్యాగ్రతస్థితః సోపి సర్వం సమాకర్ణ్య క్రోధవేగసమాకులః తం భక్షయితుమారేభే సోపి మాయాబలాద్యయౌ अथ सैन्यम् निजम् सर्वम् समाहूय दुराशयः सन्नद्धम् सायुधम् योद्धुमादिशन् लोकभीषणम् युगान्तसमयो द्वेल चतुरर्ण वशम् निभम् सैन्यानाम् सैन्यमतुलम् शोणाद्रिम् पर्यवेष्टयत् अथ गौरी समालोक्य दैत्यानाम् सैन्यमद्भुतम् ससर्ज तैजसान् शूरान् घोरान् भूतगणान् बहून् पादाक्षिचरणान् लम्बकर्ण पयोधराः पाणिपादशिरः कुक्षि वक्त्रः केचिद्विनिर्गताः अहम् ग्रसामि सकलम् अपर्याप्तमिदम् मम अहमेव हनिष्यामि दैत्यसैन्यम् अशेषतः किम् त्वयात्र पुनः कार्यम् वीक्ष्यत्वम् तिष्ठ केवलम् अहमेवात्र योत्स्यामीत्यभाषन्त परस्परम् तेषाम् कथयताम् शङ्खम् गणानाम् योगिनीगणैः अधमत्सा भगवती हन्तुम् तद्दैत्यमण्डलम् आलोक्यताम् तथा रूपाम् आपतंस्तस्य सैनिकाः दर्शयन्तः स्ववीर्याणि स्वामिनोऽग्रे धृतायुधाः ववृषुः शस्त्रवर्षाणि दैत्याः प्रतिदिगन्तरम् बाणैः कार्मुकनिर्मुक्तैस्तानि सा तु न्यवारयत् रथाणाम् वानरेन्द्राणाम् हयानाम् लक्षकोटिभिः ईषुर्भूतवेताल देव्या सृष्टास्तु दुर्जयाः मातरो विविधाकार डाकिन्युः योगिनीगणाः सृष्टाश्च तेजसा भूयः पिशाचाः प्रेतराक्षसाः देव्या सृष्टेन सैन्येन दुर्जयेन महासुराः भक्षिताश्चूर्णिता भिन्ना दारिताः निहताः क्षणात् देवी च सायुधा दृष्टा ज्वलन्ति निहतासुरैः नृत्यदूतगणैर्भुक्तैरक्तैर्मांसैश्च तोषितैः यदा कैलासशिखरात् प्राप्ता कर्तुम् तपोभुवम् तदा समागताः काश्चिन्मातृका देहगुप्तये दुन्दुभिः सत्यवत्याख्या तथा चान्तवती परा सुन्दरीति चतस्रस्ता अन्मयुः परिचारिकाः देव्या सृष्टा च चामुण्डा दंष्ट्रावलयभीषणा दैत्यकृत्तिवसा मांसरक्ततृप्ता च चारसा असुरम् कञ्चिदाक्रम्य नटनम् सा चकारः अथ ताम् समवेक्ष्य दुर्मदो हि ज्वलयामास कोपवह्निना सह अतितीव्रविवृत्तभीष्मनेत्र श्रुतिशृङ्गाग्र विभिन्नमेघजालः ज्वलदग्निशिखाभजिह्वा परिलीढोन्नत शैलशृङ्गभागः अवनिम् दलयन् खुराभिघातैः असकृत्पांसुभिरास्वनन् दिगन्तान् अतिघर्घरदीर्घघोरनाद स्फुटदण्डभ्रममोहितामरोयः धृतवालधिगण्डताड्यमान प्रतिशीर्णामित शस्त्रवर्षसङ्घः मृतये व्यगमद् वलित्रयाढ्याम् मृगराजस्थितिभासुराम् भवानीम्।
इति श्रीस्कान्दे महापुराण एकाहितशास्त्रियाम् संहितायाम् प्रथमे माहेश्वरखण्डे अरुणाचलमाहात्म्ये पूर्वार्धे देव्याः तपश्चर्यायाम् महिषासुरेण सह युद्धवर्णनम् नाम दशमोऽध्यायः। एकादशोऽध्यायः महिषासुरवधोत्तरम् देवीहस्ते महिषासुरशिरः संलग्नता वर्णनम् अरुणाचलमाहात्म्यम् च। ब्रह्मोवाच स तु सिंहस्थिताम् गौरीम् ज्वलन्तीम् विविधायुधाम् शैलवर्षेण महता कुपितः समपूरयत्। शरवर्षेण महताम् तन्निवार्य विदूरतः बिभेदनिशितैः शस्त्रैरशेषम् तस्य विग्रहम्। भिद्यमानोऽपि दैत्येन्द्रः शैलसारवप्रदुर्धरः निषादम् नागमत्किञ्चिद्ववृधे युद्धदुर्मदः। भिद्यमानः स खड्गेन चक्रैरसिभिरष्टिभिः शूलेन सायुधैश्चान्यैरन्तर्धानम् अगाहत। ततः सिंहाकृतिर्भीमः प्रचण्ड निनदाननः तीक्ष्णदंष्ट्रशितनखः परिबभ्रामकेसरी। देवी सिंहश्च पेटेन ताडयामास पाणिना दैत्यसिंहस्य च नखैस्तस्य वक्षो व्यदारयत्। अथ व्याघ्रतया प्राप्तः स्फुटव्यात्ताननो महान् तम् हन्तुम् च बलाद्देवी वेगेन करमक्षिपत दीर्घाभिर्नील रेखाभिः पूर्णः पिङ्गल विग्रहः यानावरिभिराकीर्णः स्वर्णाद्रिदिव सञ्चरन् मृगैरिव परित्रातुम् मुच्यमानोग्रतो बली ज्वलन्तमिव रोषाग्निम् जिह्वाहेतिभिरावहन् आगच्छन्तम् रथाद्देवी भल्लेन शशिवर्चसा प्रतिविव्याध तम् व्याघ्रम् पुरत्रयमिमेश्वरः सबाणस्तन्मुखे मग्नस्तद्रक्तेन समुक्षितः जगाहे गगनम् भित्त्वा देहमस्य विनिर्गतः स दैत्यो वारणो भूत्वा देवीमाश्वभ्युपागमत् बलिभिः पशुभिर्भिन्नैस्तस्याः प्रीतिमिवावहन् तम् गजेन्द्रम् समायान्तम् मदक्लिन्नमहीतलम् देवी सिंहस्तदा दृष्ट्वा ननर्द च जघान च अथ खड्गधरो वीरश्चर्मपाणिः समुद्गतः वक्त्रम् दधानो बभ्राम दंष्ट्राभ्रुकुटिभीषणम् देवी च विलसत्खड्ग चक्रचक्र लसत्कर युयोधतेन वीरेण भग्नशीर्षाभ्यपद्यत भूयः समाहिषम् रूपमास्थायासुरमायया देव्या योद्धुम् प्रववृते यथा पूर्वम् अनाकुलम् अथ देवैर्मुनीन्द्रैश्च चोदितो गौतमो मुनिः प्रबोधयितुमारेभे स्तुतिभिर्जगदम्बिकाम् त्वयि सर्वस्य जगतः प्राणशक्तिस्परामत ओजःशक्तिर्ज्ञानशक्तिर्बलशक्तिश्च गम्यते किमेतदद्य मोहाय युद्धमारभ्यते त्वया उपसंह्रियतामेष दैत्यो भुवनगुप्तये भिन्ना नामस्य देहानाम् उपसंहरणात्तव बलयश्चोपदिश्यन्ते निगमोक्त वरप्रदाः अन्यथा तृणकल्पस्य शत्रोरस्य निबर्हणे कालाग्निवर्चसो देवि किमर्थम् सम्भ्रमस्त्वियान् स्वशक्तिमम संस्तभ्य समाकर्षयताम् रिपोः प्राणशक्तिम् त्रिशूलेन गुणत्रयवपुर्धृता इति स्म बोधिता तेन पुरा भगवती तदा महिषासुरमाक्रम्य त्रिशूलेनाभ्यधारयत् अनेकगिरिसङ्काशम् देव्या विग्रहमात्मनः अशक्तस्तम् धारयितुम् ससाद महिषासुरः निष्पिष्टो विलुठन् क्रोशन्नाक्रान्तश्च परिस्फुरन् निर्गन्तुमुद्गतशिर न शशाकासुराधिपः त्रिशूलमुखभिन्नाङ्गरक्तधारासमुद्धतः समुद्र इव सञ्जात सन्ध्यारुणकलेबरः अथ खड्गेन तीक्ष्णेन कर्तयित्वा च तच्छिरः ननर्ततस्य शिरसि तिष्ठन्ति महिषार्दिनि दुर्गाम् सिद्धाश्च गन्धर्वाः प्रशशंसुर्महर्षयः पुष्पवृष्टिश्च महति देवैर्मुक्ता समन्ततः प्रणतस्प्राञ्जलिर्देवीम् तुष्टाव विबुधाधिपः इन्द्र उवाच नमस्ते जगताम् मात्रे भूतानाम् बीजसंविदे भक्तिश्रद्धा च भजताम् शक्तिश्चासि त्वमम्बिके कारणम् परमाकीर्तिः शान्तिर्दान्तिः कला क्षमा एकैव विश्वरूपा त्वम् नाम भेदैर्विनिगद्यसे तेषु तेषु परेष्वस्मांस्तपोऽनुगुण सिद्धिषु नियुज्य शत्रुम् निर्भिद्य शिवाज्ञेया प्रकाशसे हतोऽयम् महिषो दुष्टो विनिकृतश्च शाम्भवी छिन्नमेतस्य तुशिरः सजीवम् इव लक्ष्यते रक्तनेत्रम् तीक्ष्णशृङ्गम् ज्वलज्जिह्वम् चलम् शिरः आक्रम्यतवा तिष्ठन्त्य रूपमेव सदास्तु नः चक्रशृङ्गधनुर्बाण खड्गचर्म वराभयैः शूलघण्टाम् कुशकशाम् कपालकुलिशादिभिः अशेषदेवतामूर्तिरशेषैर्देवतायुधैः आपूरिता त्वमेवाम्ब सर्वशत्रून्निहंसिनः आयुधानाम् सहस्राणि तन्मयास्ते विभूतयः त्वज्जितारातयः सर्वे विविधायुधः वाहनाः रथनागहैर्युक्ताः ससैन्या अपि भूभृतः क्षणेन दग्धवीर्या स्युः त्वत्प्रसाद विवर्जिताः अपदोऽप्यल्पवीर्योऽपि त्वत्पादाम्बुजसेवकः त्रिलोकनाथताम् प्राप्तः प्रथते कीर्तिमण्डितः तद्रूपमिदमत्युग्रम् ध्यायेतामर्चताम् सदा न शत्रुभ्योभयम् किञ्चिद् भवेद्विजयशालिनाम् ईदृशम् सर्वलोकेषु रूपम् ते देववन्दितम्
पूज्यतामिष्टसिद्ध्यर्थम् देवैर्भृत्यैश्च सर्वदा मातरश्च त्वया सृष्टाः सर्वाभीष्टफलप्रदाः
सगणाः प्रतिपूज्यन्ताम् सर्वस्थानेषु सर्वदा
अयम् च निहतो दैत्यः त्वत्पादकृतलाञ्छनः
तव भक्तैः सदा पूज्यः त्वत्प्रसादात्पदग्रतः इत्थम् सुरेन्द्रप्रणुत सर्वर्षिसुरसेविता तथेति वरदा देवी ससर्ज च दिनम् प्रति स्वयमप्यात्मनस्तत्र तद्रूपम् विविधायुधम् संस्थाप्य मातृभिः सार्धम् स्थानरक्षणमातनोत् सङ्गृह्य विमलम् रूपम् सखीजनसमावृता महिषस्य शिरो पश्यद्विकृतम् खड्गधारया कथयन्ती पुनस्तस्य चित्रम् लोकविभूषणम् सखीभिः सह सा बाला कण्ठम् तस्य व्यलोकयत् अपश्यच्च तदालिङ्गम् कर्तुम् तस्य च पूजनम् आदत्त सहसा गौरी लिङ्गम् तस्य गये स्थितम् आलोकयच्च सुचिरम् रक्तधारा परिप्लुतम् आसज्यत पुनर्लिङ्गमस्याः पाणितलम् गतम् विमोचयितुमुद्युक्ता नाशक्नोल्लग्नमञ्जसा अचिन्तयच्च सा देवी किमेतदिति विस्मयात् विषादेन च संयुक्ता महर्षीणाम् पुरस्थिता आहत शिवभक्तोऽयम् इति शोकम् समाविशत् अगर्हत भृशम् मौढ्यमात्मनस्त्रीस्वभावजम् अविचारसमारब्धम् शिवभक्तनिबर्हणम् उपतापरीताङ्गि गौतमम् मुनिसत्तमम् उपगम्याब्रवीद्बाला साहसम् कृतमात्मना भगवन् सर्वधर्मज्ञ गौतमार्यमुनीश्वर मान्यया धर्मरूपेण कोऽप्यधर्मः प्रकल्पितः देवानाम् रक्षणम् कर्तुमभयम् दातुमुद्यत अज्ञानान्महिषम् दैत्यम् शिवभक्तिममर्दयम् रजसाक्रान्त बुद्धीनाम् न भवेद्धर्मसङ्ग्रहः गुरुप्रसारसुलभः स्फुरद्विघ्नशताकुलः सुदुर्धर्षा निराचारदुद्गमाः शिवसंश्रयाः विशेषतो लिङ्गधराः शिवस्तान् बहुमन्यते पुरा पुरत्रयावासा दैतेया लिङ्गधारकाः अजिता शम्भुना पूर्वम् मुक्तलिङ्गा निषोदिताः अस्य कण्ठस्थितम् लिङ्गम् मम पाणिम् न मुञ्चति कथम् पापम् निरस्यामि शिवभक्तमधाश्रितम् अस्य कण्ठस्थितम् लिङ्गम् धारयन्ती तपोन्विता तीर्थयात्राम् करिष्यामि यावच्छम्भुः प्रसीदति पुनः कैलासमुख्येषु शम्भुस्थानेषु भूरिषु तीर्थेषु रचितस्नानालप्स्ये पापविशोधनम् इति तस्याः परिश्रान्तिम् दुर्धर्म परिशङ्कय आकर्ण्य शिवधर्मज्ञो भयात्ताम् तामवोचत मा भैषीर्गिरिजे मोहाच्छिवभक्तो हतस्त्विति धर्मसूक्ष्मार्थवेत्तारो दुर्लभ गिरिकन्यके सदाशिवस्य वदनैः सद्यो जातादि संश्रितैः आगमः पञ्चभिः प्रोक्त अष्टाविंशतिकोटयः निर्णया शिवभक्तानाम् शिवमार्गस्य शोभनाः तेषु तेषु मुनीन्द्रैश्च न त्वैव प्रतिपद्यते कालो मुखम् च कङ्कालम् शैवम् पाशुपतम् तथा महाव्रतम् पञ्चचैताः शिवमार्गप्रवृत्तयः भेदाश्च बहवस्तेषामन्योन्यस्य शिवेरताः साध्य एको हि बलवान् सर्वैस्तैरनिशम् शिवः सर्व एव सदा पूज्याः स्वधर्मपरिनिष्ठितैः अमत्सरैः शिवे भक्तैः शिवाज्ञापरिपालकैः वेदैश्च बहुभिर्यज्ञैर्भक्त्या च परया शिवः आराध्यते महादेवः सर्वदा सर्वदायकः ஜீவஹிம்சா ந கர்த்தவ்யா விசேஷேண தபஸ்விபிஹி சிவதர்மஸ்ய பேத்தாரோ நிஹந்தவ்யாஸ்ததாஞ்சசா நமேஷ ஜுஷி வீக்ஷேத நலிங்கம் நைம சம்பவம் சிவதர்மஸ்ய பேத்தாரோ நிஹந்தவ்யாஸ்ததாஞ்சசா பஹுபிஸ்பூர்த்தயா புத்யா தர்மவித்பிர் நிரூபிதே சிவதர்மஸ்ய விலயே சத்ய சக்தி ப்ரவர்த்ததே அஸ்ய கர்ம புனர்திஷ்டம் லிங்கமைஸ்வர்ய சர்ச்சிதம் நஜேதும் சக்யதே தேவி தேனாசௌ தர்ம தேவதைஹி யதயம் நிஹதோ தேவி த்வயா சங்கரமான்யயா ஆக்ராந்த ஷாபதோஷேண மஹர்ஷீணாம் சிவாஶ்ரயாத் அத தே குபிதாஸ்தஸ்ய வைஷவியாதவமானதஹ சேபுரம் மஹிஷவத்துஷ்டோ மஹிஷோயம் பவத்விதி ததஸ்தத்வசனாத் சத்யோ மஹிஷோ பூத்க்ஷணாத் ததா பிரணம்ய தோஷயாமாஸ யயாச்சே சாபமோசனம் தத்வா பிரகாமரூபத்வம் ததுரஸ்மை பிரசாதிதாஹ மஹிஷத்வேபி சம்ஹாரம் ஸ்வயம் தேவ்யா சிவாஜ்ஞயா விஷாதோ ந ச கர்த்தவ்யோ அங்கதர்ஷனதஸ்த்வயா சித்தானாம் சிவரூபாணாம் அவஜ்ஞாகம் ந பாததே மஹிஷத்வே சமுத்பன்னே தோஷேண சமுபஸ்திதே சித்த பிரசாதால்லப்தோயம் சாபநாசஸ்த்வயா க்ருத சர்வே லோகாஶ்ச சந்த்ராத துஷ்டோயம் பரிரக்ஷித சாப தோஷ சமுத்பன்னே மஹிஷத்வே விமோசிதே த்வயா ச கிரிஷத் ப்ரைத்யை தப குருவாணயா த்ரிஜே த்ரஷ்டவ்யம் தயசம் லிங்கம் அருணாச்சல சமுஜ்ஞிதம் பூர்வஜன்மனி பக்தோயம் அருணாத்ரிபதே ஸ்புடம் மஹிஷத்வே மதாக்ராந்த பரம் லிங்கேன சங்கத பக்த்யா இங்கதரம் ஹந்தும் கஸ்ஸமர்த்தோ ஜகத்ரயே த்ருஷ்டா புரத்ரயே பூர்வம் ருத்ரேண பூஜிதாஸ்த்ரய த்வத்கட்க பரிக்ருத்தேன கண்டேனாஸ்ய வரானனே தீக்ஷாதிரஹிதம் லிங்கம் தத்தம் ஹந்தீதி சோதிதம் க்ருதம் ஹி மஹிஷேணாபி பக்திதஹ லிங்கதாரணம் கதாசித் க்ஷபணோக்தானாம் விபாஷாத் ப்ரத்யயம் கதஹ பூர்வஜன்ம தபோயோகாத் ஸ்மரணோ லிங்கதாரணாத் த்வத்பாத பத்மசம்ஸ்பர்ஷாதயம் முக்தோ ந சம்சய மதுக்த நிஷ்க்ருதீனாந்தோ பாதகானாம் ச நாசனம் தர்ஷனம் ஷைலவர்யஸ்ய ப்ராயஶ்சித்தம் பரந்மதம் சம்ஸ்தாப்ய விவிதாஞ்சைவாஞ்சிவ சித்தாம் தவேரினஹ ஆவாஹ்ய சர்வதீர்த்தானி சர்வதோஷ நிவ்ருத்வயே சரஹ கிமபி சம்பாத்யா ஸ்நாத்வா தத்ர வரானனே அகமர்ஷ்ண சம்யுக்தா சலிங்கா ஸ்நானமாச்சர த்ரிசந்த்யம் சைவ சமாசாந்தே தேவயாக மஹோத்சவே ஆராதயோபசாரைஸ்த்வம் அருணாத்ரிமயம் சிவம் ஏவம் தஸ்ய முனேர்நிஷம்ய வச்சனம் ஷைவார்த்த சம்பாவிதம் ப்ரீதா தேவ நமஸ்க்ருதா கிரிசுதா தேவி ஜகத்ரக்ஷிகா ஷைவம் தர்மமம் விதாத்துமுச்சிதம் ஷோணாச்சலஸ்யாக்ரதஸ்தீர்த்தாகாஹன புத்திமாஷு விததே கர்த்தும் த்வகக்ஷாலனம் இது ஸ்ரீ ஸ்காந்தே மகாபுராணே ஏகாஷ்டி சாஸ்திரியாம் சம்ஹிதாயாம் பிரதமே மாஹேஸ்வரகண்டே அருணாச்சல மகாத்மே பூர்வார்த்தே மகிஷாசுரவதோத்தரம் தேவி பாணோ மகிஷாசுரசித சம்லக்னதா வ்ருத்தாந்த வர்ணனம் நாம ஏகாதசோத்யாயஹ.